शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये व्यासं वसिष्ठनक्तारं शक्तिः पौत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे ॐ नमो विष्णवे प्रभ विष्णवे श्रीवैशम्पायन उवाच श्रुत्वा धर्मान् शेषेण पावनानि च सर्वशः युधिष्ठिर शान्तनवम् पुनरेवाभ्यभाषत युधिष्ठिर उवाच किमेकम् दैवतम् लोके किं वाप्येकम् परायणम् स्तुवन्तः कम् कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जपन्मुच्यते जन्तु जन्म संसार बन्धनात् श्रीभीष्म उवाच जगत्प्रभुम् देवदेवम् अनन्तम् पुरुषोत्तमम् सुवन्नाम सहस्रेण पुरुषः सततोत्थितः तमेव चाचयन् नित्यम् भक्त्या पुरुषमव्ययम् ध्यायन् सुवन्नमस्यश्च यजमानस्तमेव च अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् शुभम् नित्यम् सर्वदुःखातिगो भवे ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् तवैर्वचन्नरः सदा परमं यो महत्तेज परमं यो महत्तपः परमं यो महद्ब्रह्म परमं यः परायणम् पवित्राणाम् पवित्रं यो मङ्गलानां च मङ्गलम् दैवतम् देवतानां च भूतानां योग यः पिता यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्चित् प्रलयम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पाप भयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिहीतानि तानि वक्ष्यामि भूतये ऋषिर्नामाम् सहस्रस्य वेदव्यासो महामुनिः छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः अमृतांशुद्भवो बीजम् शक्तिर्देवकी नन्दनः त्रिसामहृदयम् तस्य शान्त्यर्थे विनियुज्यते विष्णुम् विष्णुम् महाविष्णुम् सर्वविष्णुम् महेश्वरम् अनेकरूप दैत्यान्तम् नमामि पुरुषोत्तमम् अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता अमृतांशुद्भवो भामृतिबीजम् देवकीनन्दनः स्रष्टेति शक्तिः उद्भवः शोभणो देव इति परमो मन्त्रः शङ्खभृन्नन्दकी चक्रीति कीलकम् शारङ्गं वागदाधर इत्यस्त्रम् रथाङ्गपाणिरक्षोभ्य इति नेत्रम् त्रिसामासामगः सामेति कवचम् आनन्दं परब्रह्मेति योनिः ऋतुः सुदर्शनः काल इति दिग्बन्धः श्रीविश्वरूप इति ध्यानम् श्रीमहाविष्णुकृत्यर्थे सहस्रनाम जपे विनियोगः ध्यानम् श्रीरोदन्वत्प्रदेशे शुचिमणिविलसत् सैकतैर्मौक्तिकानाम् मालाक्लुप्तासनस्थः स्फटिकमणिनिभै मौक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैरदभ्रैरूपरिविरचितैर्मुक्तपीयूषवर्षैः आनन्दीनः पुनीयादरिनलिनगदाशङ्कपाणिर्मुकुन्दः भुक्पादौ यस्य नाभिर्यदसुरमिलश्चन्द्रसूर्योचनेत्रे कर्णावाशः शिरोद्योर्मुखमपि दहनो यस्य वास्तेयमभिः अन्तस्थम् यस्य विश्वम् सुरनरखगो भोगि गन्धर्वदैत्यैः चित्रम् ररम्यते तम् त्रिभुवनवपुषम् विष्णुमीशम् नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिरुद्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् मेघश्यामम् पीतकौशेयवासम् श्रीवत्साङ्ककौस्तुभोद्भासिताङ्गम् पुण्योपेतम् पुण्डरीकायताक्षम् विष्णुम् वन्दे सर्वलोकैकनाथम् नमः समस्तभूतानाम् आदिभूताय भुभृते अनेकरूपरूपाय विष्णवे प्रभविष्णवे सशङ्खचक्रम् सकिरीटकुण्डलम् सपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्थलशोभिकौसुभम् नमामि विष्णुम् शिरसा चतुर्भुजम् छायायाम् पारिजातस्य हेम सिंहासनोपरि आसीनमम्बुदश्याम मायताक्षमलङ्कृतम् चन्द्राननम् चतुर्बाहुम् श्रीवत्साङ्कितवक्षसम् रुक्मिणी सत्यभामाभ्याम् सहितम् कृष्णमाश्रये विष्णुर्वशत्कारो भूतभोगभवत् प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानम् पुरुषेश्वरः नारसिंह वपुः श्रीमान् केशव पुरुषोत्तमः सर्वः शर्वः शिवस्थाणुर्भूताधिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेशः पद्मनाभो वरप्रभुः विश्वकर्मा मनुस्त्वष्टा हविष्ठः हविरो ध्रुवः अग्रायः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रम् मङ्गलम् परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् सुरेशः शरणम् शर्म विश्वरेतः प्रजाभवः अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः तृषा कपिरमेयात्मा सर्वयोग विनिश्रुतः वसुर्वसुमनः सत्यः समात्मा संमितः समः अमोघ पुण्डरीकाक्षो विषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुः विश्वयोनिशुचिश्रवाः अमृतः शाश्वतस्थाणुः वरारोहो महातपाः गर्वगः सर्वविद्भानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदौ व्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंष्टश्चतुर्भुजः भ्राजिष्णुर्भोजनम् भोक्ता सहिष्णुर्जगदाविजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशुः अमोघ शुचिरुर्जितः अतीन्द्रः सङ्ग्रहः सर्गो कृतात्मा नियमोऽयमः वेद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाजतिः अनिर्देश वपुः श्रीमान् अमेयात्मा महाद्विभुः महेश्वासो महीभर्ता श्रीनिवासः सतां गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः मरीचिर्दमनोहंसः सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपः पद्मनाभ प्रजापतिः अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्तिरः अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषः सृग्वी वाचस्पतिरुदारधीः अग्रणिर्ग्रामणिः श्रीमान् न्यायो नेता समीरः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृत्तात्मा संवृत्तः सम्प्रमर्दनः अहः संवर्तको वह्निः अनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुः विभुः चक्कर्ता सत्कृतः साधुर्जन्मुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः वृषा हि वृषभो विष्णुर्वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूपो बृहद्रूपः क्षिपिविष्टः प्रकाशः ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः रुद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशुद्भवो भानु शशबिन्दुः सुरेश्वरः औषधम् जगतः सेतु सत्यधर्म पराक्रमः भूतभौनभवन्नाथ पवनः पावनो नलः कामः कामकृत्कान्तः कामः कामप्रदः प्रभुः युगादिकृत् युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजित् अनन्तजित् इष्टो विशिष्टः शिष्टश्चः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतः पथितः प्राणः प्राणदो वासवानुजः अपां निरिवधिष्ठानम् अप्रमत्तः प्रतिष्ठितः स्कन्दः स्कन्दधरो धूर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः अनुकूलः शतावर्तः पद्मे पद्मनिभेक्षणः पद्मनाभोरबिन्दाक्षः पद्मगर्भः शरीरभृत् महर्विरुद्धवृद्धात्मा महाक्षो गरुडध्वजः अतुलः शरभो भीमः समयद्योहविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान्तमितिञ्जयः वीक्षरोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवानमिताशनः उद्भवक्षोभणो देवः श्रीगर्भ परमेश्वरः चरणं कारणं कर्ता विकर्ता दहनो गुहः व्यवसायो व्यवस्थानः संस्थान स्थान दोध्रुवः परर्धि परमस्पष्ट तुष्ट पुष्ट सुभिक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राण प्राणदः प्रणवः क्रतुः हिरण्यगर्भ शत्रुघ्नो व्याप्तो वायुरधूक्षजः ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारः स्थावरस्थाणु प्रमाणम् बीजमव्ययम् अर्थो नर्थो महाकोशो महाभोगो महाधनः अनिर्विन्नस्थविष्ठो भूर्धर्मयुगो महामुखः नक्षत्रनेमिर्नक्षत्रे क्षमः क्षामः समीहनः यज्ञ ईजो महेजश्च चतुः सत्तां सताङ्गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुवृतः सुमुखः सूक्ष्म सुघोषः सुखदः सुहृत् मनोहरो जितक्रोधो वीरबाहुर्विदारणः स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्से रत्नगर्भो धनेश्वरः धर्मगुप्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्ति नेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोक्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतपः सोमः पुरुजित् पुरुषोत्तमः विनयो जयः सत्यसन्धो दाशार्ह सात्वताम्पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधिरनन्तात्मा महोदधिशयोऽन्ततः अजो महर्ह स्वाभाव्यो चितामित्रः प्रमोदनः आनन्दो नन्दनो नन्द सत्यधर्मा त्रिविक्रमः महर्षिः कपिलाचार्य कृतघ्नो मेदिनीपतिः त्रिपदस् त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् महावराहो गोविन्दः सुषेणः तनकाङ्गदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेधास्वाङ्गोजितः कृष्णो दृढः सङ्कर्षणोच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगवानन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुजन्वाखण्डपरशुर्दारुणो द्रविणप्रदः दिवस्रुक् सर्वदृग्व्यासो वाचस्पतिरयो निजः त्रिसामासामदःसाम निर्वाणम् भेषजम् भिषत् संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् शुभङ्गः शान्तिदस्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ती निवृत्तात्मा संक्षेपाक्षेमकृच्छिवः श्रीवत्स वक्षा श्रीवास श्रीपतिः श्रीमताम्बरः श्रीदः श्रीशः श्रीनिवासः श्रीनिधि श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः स्वच्छः स्वङ्गशतानन्दो मन्दिर ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्ति छिन्न संशयः सुदीर्णः सर्वतः चक्षु अनीशः शाश्वतः स्थिरः भूषयो भूषणो भूतिर्विशोकः शोकनाशनः अर्चिष्मान् अर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथः प्रद्युम्नो मितविक्रमः कालनेमिनिहावीरः शौरिशूरजनेश्वर त्रिलोकात्मा त्रिलोकेश केशव केशिहा हरि कामदेव कामपाल कामी कांतः कृतागमः अनिर्देशव पुरविष्णुर्वीरो नन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः सौरः तव प्रियः स्तोत्रम् सुतिः स्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः शूरसेनो यदुश्रेष्ठ सन्निवासः सुयामुनः भूतावासो वासुदेव सर्वासु निलयो नलः दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः एकोनैकः सवः कक्तिम् यत्तत्परमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरहा विषमः शून्यो धृताशीरचलश्चलः अमानीमानदो मान्यो लोकस्वामी त्रिलोकधृ सुमेधा मेधजो धन्य सत्यमेधाधराधरः तेजो वृषोदितिधरः सर्वशस्त्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकः शृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविवेकपात् समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिह शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तु वर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भव सुन्दर सुन्दो रत्ननाभ सुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी सुवर्णबिन्दुरक्षोभ्य सर्ववागीश्वरेश्वरः महारुदो महागर्तो महाभूतो महानिधिः कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो निलः अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः न क्रोधो दुम्बरोऽश्वत्थः चाणूरान्धनिशूलनः सहस्रार्चिः सप्तजिह्वः सप्तैधा सप्तवाहनः अमूर्तिर्नघो चिन्त्यो भयकृत् भयनाशनः अणुर्बृहत् कृशःशूलो गुणभङ्गुणो महान् अद्युतः स्वद्युतः स्वास्यश्चाद्वंशो वंशवर्धनः भारभृत् कथितो योगी योगीशः सर्वकामदः आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमयितादमः अपराजितः सर्वसहो नियन्ता नियमो नमः सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायः प्रियार्हूर्ध प्रियकृत् प्रीतिवर्धनः विहाय सगतिर्ज्योतिः सुरुचिर्हृतभुग्विभुः रविर्विरोचनः सूर्यः सविता रविलोचनः अनन्तो हृतभुग्भोक्ता सुखदो नैकजोऽग्रजः अनिर्विण्णः सदामर्षि लोकाधिष्ठानमद्भुतः सनातनतमः कपिलः कपिदव्ययः स्वस्ति दः स्वस्ति कृत् स्वस्ति स्वस्ति भुक् स्वस्ति दक्षिणः अरुद्रः कुण्डली चक्री विक्रम्योर्जितशासनः शब्दातिगः शब्दशः शिशिरः शर्वरीकरः अक्रूरः पेशलो दक्षो दक्षिणः शमिनाम्बरः विद्वत्तमो वीतभयः पुण्य श्रवण कीर्तन उत्तारणो दुष्कृति पुण्यो दुःस्वप्न नाशन वीरहारक्षण संतो जीवन पर्यवस्थित अनंत रूपो अनंत श्रीर्जित मन्युर्भयाप चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः जननो जन जन्मादिर्भीमो भीम पराक्रमः आधार निलयो धाता पुष्पहास प्रजागरः ऊर्ध्वगः सत्पथाचार प्राणदः प्रणवः पणः प्रमाणं प्राण निलयः प्राणजीवन तत्त्वं तत्त्वविदेकात्मा जन्म मृत्यु जरातिगः दुर्गुः स्वस्तरुस्तार सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः यज्ञान्तकृद्यज्ञगुह्यम् अन्नम् अन्नाद एव च आत्मयोनिः स्वयं जातो वैखानः सामगायनः देवकी नन्दनः स्रष्टा क्षितीशः पापनाशनः शङ्खभुन्नन्दकी चक्री शारङ्गन्दा गदाधरः रथाङ्गपाणिदक्षोभ्यः सर्व प्रहरणायुधः सर्व प्रहरणायुध ॐ नमः वनमाली गदीशांगी शंखी चक्री च नंदकी श्रीमान नारायणो विष्णुर्वासुदेवो भिरक्षतु वनमाली गदीशांगी शंखी चक्री च नंदकी श्रीमान नारायणो विष्णुर्वासुदेवो भिरक्षतु वनमाली गदीशांगी शंखी चक्री च नंदकी श्रीमान नारायणो विष्णुर्वासुदेवो भिरक्षतु। Thank you.